अथ श्रीगणेश पञ्चरत्नस्तोत्रम् मुदाकरात्मोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासि लोकरक्षकम् अनायकैकनायकं विनाशिते नताशुभाशुनाशकं नमामितं विनायकं नताशुभाशुनाशकं नमामितं विनायकं नतेतराति भीकरं नवोदितार्कभास्वरं नमत्सुरारि निर्जरं नताधिकापदुद्धरम् सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरं महेश्वरं तमाश्रये परात्परं निरन्तरं समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं दरेतरोदरं वरं वरे भवक्रमक्षरम् कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतान् नमस्करोमि भास्वरं मनस्करं नमस्कृतान् नमस्करोमि भास्वरम् अकिञ्चनार्ति मार्जनै चिरन्तनोक्ति भाजनं पुरारि पूर्वनन्दनं सुरारि गर्वचर्वणं प्रपञ्चनाशभीषणन्दनै जयादिभूषणं कपोलदानवारणं भजे पुराणवारणं कपोलदानवारणं भजे पुराणवारणम् नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजम् अचिन्त्यरूपमन्तहीनमन्तराय कृन्तनम् रुदन्तरे निरन्तरं वसन्त तमेकदन्तमेव तं विचिन्तयामि सन्ततम् तमेकदन्तमेव तं विचिन्तयामि सन्ततम् महागणेश पञ्चरत्नमादरेण योन्महम् प्रजल्पति प्रभातकीरुदि स्मरन् गणेश्वरम् अरोगतामदोषतां सुसाहितीं सुपुत्रतां समाहितायुरष्टभूतिमभ्युपैति सोचिरात् समाहितायुरष्टभूतिमभ्युपैति सोचिरात् इति श्रीशङ्करभगवतकृतौ श्रीगणेशपञ्चरत्नस्तोत्रं सम्पूर्णम्।